अस्य मद्भक्तिवदमादयध्वन्तृप्तायातपतिभिर्ते भयानैः सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता धरात्तात् सविता नः सुवतु सर्वदा किं सविता नो शतं यथेमं शरधो न यातिम्।